एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। पाटनवर्तिना उच्च न्यायालयेन कृत्रिम भूटान देशीय शरणार्थी प्रकरणे पूर्वोप प्रधानमन्त्रिणा टोपबहादुर रायमाझी इत्यनेन सहितान् अष्टजनान् प्रामाण्य पुष्टि विमर्शनाय कारावासे स्थापयितुम् आदिष्टम् वर्तते। न्यायाधीशद्वयस्य जनक पाण्डे प्रकाश खरेलयोः संयुक्त न्यायपीठेन काष्ठमण्डप जनपद न्यायालयस्य आदेश ह्य स्वीकृतोऽस्ति। पूर्व गृहमन्त्रिणा बालकृष्ण खाँड इत्यस्य विषये द्वयोः न्यायाधीशयोः सहमतिर्नाभवत्। न्यायाधीश जनक पाण्डे त्रिंशतो लक्षाणां रूप्यकाणां न्यासवित्तेन तं मोचयितुम्, अपर न्यायाधीश प्रकाश खरेलः कारावासे एव स्थापयितुं च आदिशतामित्यतः अतपरं प्रकरणमिदं तृतीय न्यायाधीशस्य समक्षं प्रस्तुष्यति। आषाढस्य प्रथमे दिवसे एतान् सर्वान् प्रामाण्य पुष्टि विमर्शनाय कारावासे स्थापयितुं काष्ठमण्डप जनपद न्यायालयेन आदिष्टम् आसीत्। प्रतिवादिभ्य दशतः पञ्चदश लक्षाणि यावत् रूप्यकाणि न्यासवित्तस्य रूपेण ग्रहीतुं न्यायालयेन आदिष्टम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नेपाले निवेशनस्य वर्धनाय संयुक्त अरब इमिरेट्स देशस्य निवेशकर्तृन् अनुरुणद्धि। नेपाल उद्योग वाणिज्य महासंघेन दुवै चेम्बर संस्थया च संयुक्त रूपेण ह्यो दुवै स्थाने आयोजितम् नेपाल संयुक्त अरब इमिरेट्स देशीय व्यापार मञ्च सम्मेलनम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः नेपालम् निवेशन गन्तव्यम् निर्मातुम् अनुरुणत। संयुक्त अरब इमिरेट्स देशे विद्यमानस्य नेपाली राजदूतावासस्य सहयोगेन आयोजिते तस्मिन् सम्मेलने संयुक्त अरब इमिरेट्स देशस्य अर्थ राज्य मन्त्री अब्दुल्लाह अहमद एल सलेह नेपालस्य ऊर्जा पर्यटन क्षेत्रयोः निवेशनम् वर्धयितुं शक्यते इत्यभासत। असौ नेपाल संयुक्त अरब इमिरेट्स देशयोः मध्ये सुमधुर सम्बन्धस्य विद्यमानत्वात् व्यावसायिक सम्बन्धमपि क्रमेण सबलयितुं तत्परता स्थिति अवदत्। नेपाल उद्योग वाणिज्य महासंघस्य अध्यक्ष चन्द्रप्रसाद ढकालः अकथयत्, नेपालस्य अर्थतन्त्रे दृष्टेन सुधारेण निवेशकर्तृभ्यो नवीनावसरः सृष्टो वर्तते। कार्यक्रमे नेपालस्य ऊर्जा पर्यटन कृषि प्रशोधन सूचना प्रविधि क्षेत्रेषु निवेशनाय आकर्षकः अवसरोस्तीति निवेशकर्तारो ज्ञापिताः आसन्। स्वसेवा आन्तरापणे भारत बंगलादेशयो क्षेत्रीयापणे च ऊर्जा सहयाचनायाः वर्धनस्य हेतोः नेपालस्य जलविद्युति विधातव्येन निवेशनेन उच्चै प्रतिफलं प्रदास्यते इति च ज्ञापितम् आसीत्। दुवै स्थाने आयोजिते जलवायु परिवर्तन सम्बद्धस्य संयुक्त राष्ट्रसंघीय सम्मेलनस्य उद्घाटन समारोहे प्रधानमन्त्री प्रचण्डः जलवायु परिवर्तनस्य सम्बन्धे वर्तमान युवा सन्ततिः भावी सन्ततिश्च गभीरेस्ता इति भाषमाणः एतस्मिन् विषये नेपालेन विशेष प्राथमिकता प्राप्तव्येति बलं प्रादात्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति कोप अष्टाविंशति नाम्नः जलवायु परिवर्तन सम्बद्धस्य संयुक्त राष्ट्र संघीय संरचना महासन्धेः अष्टाविंश सम्मेलनस्य अवसरस्य रूपेण परिवर्तनत्वेन अग्रे वर्धितव्यम्। कोप अष्टाविंशति सम्मेलनस्य परिसर वर्तिनी नेपालस्य मण्डपे ह्य आयोजितम् कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः अकथयत्, नेपालेन जलवायु परिवर्तनस्य प्रभावस्य विषये स्वस्यैव अधिकारम् संस्थाप्य अग्रे वर्धनाय पूर्वकार्यम् विहितम् वर्तते। संयुक्त राष्ट्रसंघस्य महासभायामपि आत्मना नेपाले जलवायु परिवर्तनस्य प्रभाव भयानको स्थिति उक्तमिति प्रसंगम् उद्भावयन् संयुक्त राष्ट्रसंघस्य महासचिवेन एन्टोनियो गुटरेस इत्यनेन सह वित्तायामन्तरक्रिया आयाम च विश्वयोसौ उत्थापिता इति सन्दर्भं च सूचयन् प्रधानमन्त्री प्रचण्डः कोप अष्टाविंशति सम्मेलनस्य उद्घाटनस्य अवसरे महासचिवेन गुटरेस इत्यनेन स्वकीय मन्तव्ये ह्यो विहितम् नेपालस्य नामोच्चारणम् नाम नेपालाय हर्षस्य विषयस्थिति प्रावोचत। नेपाले जलवायु परिवर्तनस्य प्रभावस्य विषय विश्वव्यापी रूपेण चर्चितोऽस्ति इति चर्चयन् प्रधानमन्त्री प्रचण्डः अब्रवीत्, नेपालाय अधिकार प्रदानात्मकम् वातावरणम् निर्मीयमाणम् वर्तते। असौ कोप अष्टाविंशति सम्मेलने नेपालस्य पक्षतः प्रभावकारी रूपेण प्रस्तुता भवितुम् प्रतिनिधिमण्डलस्य सर्वान् जनान् निरदिशत्। निर्वाचनायोगेन राष्ट्रियसभायाः आगामिनः माघमासस्य एकादशे दिवसे सम्पक्षमानाय निर्वाचनाय निर्वाचन कार्यतालिका स्वीकृता वर्तते। आयोगेन स्वीकृताया कार्यतालिकाया अनुसारेण शिव मार्गशीर्ष मासस्य द्वाविंशे दिवसे निर्वाचने भागग्रहणाय राजनीतिक दलानां पंजीकरणस्य कृते सूचनाया प्रकाशनस्य मार्गशीर्ष मासस्य चतुर्विंशात् दिवसात् ऊनत्रिंशं दिवसं यावत् राजनीतिक दलानां पंजीकरणस्य च कार्यक्रमो वर्तते। स्वीकृत कार्यतालिकाया अनुसारेण आगामिनः पौषमासस्य षोडशे दिवसे निर्वाचनाधिकृतानां नियुक्तिः तस्मिन्नेव च दिने सप्तषु एव प्रदेश निर्वाचन कार्यालयेषु निर्वाचनाधिकृतानां कार्यालयाश्च स्थापयिष्यन्ते। पौषस्य विंशात् दिवसात् अष्टाविंशं दिवसं यावत् निर्वाचनाधिकृतानां कार्यालयेषु निर्वाचन कार्यक्रमः सञ्चालयिष्यते। राष्ट्रपतिः रामचन्द्र पौडेलः चुरेक क्षेत्रस्य संरक्षणाय स्थायी समाधानम् अन्वेष्टुम् एतदर्थम् आवश्यक कार्याणि विधातुञ्च राष्ट्रपति चुरे तराई मधेस संरक्षण विकास समित्यै परामृशति। राष्ट्रपतिः पौडेलः राष्ट्रपति चुरे तराई मधेस संरक्षण विकास समितेः पदाधिकारिभिः ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने चुरेक क्षेत्रस्य संरक्षणस्य सम्बन्धे विहिते विमर्शने संचलता अनेन कार्येण एव दीर्घकालिकं समाधानं न भविष्यति इति चर्चयन् चुरेक क्षेत्रस्य विनाशेन सम्भावितं संकटं प्रति चिन्तां व्यक्तवान्। राष्ट्रपतिः पौडेलः भूस्खलनं रोद्धव्यं नदीभिः खुलिकाभिश्च प्रवाह्या आनीतान् शिलाखण्डान् शिलाखण्डमिश्रिताः बालुकाश्च अपसार्य नदीनां प्रवहणस्य निश्चितधारस्य निर्माणं हरितीकरणं चेति कार्याणां कृते राज्येनैव वृहद् योजनां निर्माय कार्यं विधेयम् इति बलम् प्रादात। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली गठबन्धनेन देशं बन्धकीकृत्य आर्थिक संकटः आनीतः इति आरोपयति। डडेलधुरा जनपदे आयोजिताया समृद्धये संकल्प यात्राया अन्तर्गतं ह्य सम्पन्नां सन्देश सभां सम्बोधयन् अध्यक्ष ओली देशे सर्वकारेण अन्तरं ऋणं गृहीत्वा कर्मचारिभ्य वेतन प्रदानस्य अवस्था सृष्टेति अगदत्। एमाले दलस्य नेतृत्वस्य सर्वकारेण आनीतानां विकास परियोजना वित्तं न्यूनीकृत्य देशम् असफलं विदातुं सर्वकारः सक्रिय स्थिति असौ आरोपयत् इति समाचाराः।